एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलस्य एकादश महाधिवेशने नूतन नेतृत्वस्य चयनाय काष्ठमण्डपस्य भृकुटी मण्डपस्थाने सम्प्रति मतदानं जायमानमस्ति। दलस्य केन्द्रीय निर्वाचन आयोगेन व्यवस्थितानाम् अशीतेः वैद्युत मतदानोपकरणानां माध्यमेन मतदानस्य कार्यं संचलदस्ति। ह्यः पूर्वाह्नस्य नववादने मतदानस्य कार्यं प्रारब्धम् आसीत्। एमाले दलस्य एकोनविंशत्या पदाधिकारिभिः सहितायाः एकोत्तरशतत्रय सदस्यीयायाः केन्द्रीय समितेः चयनस्य कृते द्वाचत्वारिंशदुत्तर षट्शतं प्रत्याशिनः प्रतिस्पर्धायां वर्तन्ते चेत् सहस्रद्वयं त्रिषष्ट्युत्तर शतद्वयं च प्रतिनिधयः महाधिवेशने सहभागिनो वर्तन्ते। अध्यक्षपदे केपी शर्मा ओलिनः ईश्वर पोखरेलस्य च प्रतिस्पर्धा जायमाना अस्ति। प्रधानमन्त्री सुशीला कार्की निगदति सर्वकारः सुशासनं निर्वाचनं च प्राथमिकतायां संस्थाप्य अग्रे वर्धमानोऽस्ति। ह्यः ललितपुर महानगरपालिकायाः सप्तोत्तरैकशततमस्य स्थापना दिवसस्य अवसरे आयोजिते कार्यक्रमे प्रधानमन्त्री कार्की गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतस्य आन्दोलनस्य अनन्तरं देशे नवीना अवस्था सृष्टास्तीत्यतः सर्वकारः सुशासनं निर्वाचनं च प्राथमिकतायां निधाय अग्रेसरन्नस्ति इति अवदत्। प्रधानमन्त्री कार्की आगामिनः फाल्गुन मासस्य एकविंशाय दिवसाय निर्धारितं प्रतिनिधिसभायाः निर्वाचनं सम्पादयितुं सर्वकारः पूर्णतया प्रतिबद्धोऽस्ति इति प्रावोचत्। कार्यक्रमे ललितपुर महानगरपालिकायाः प्रमुखः चिरीबाबु महर्जन उद्घुष्टं निर्वाचनं सफलीकर्तुं जेएनजीयूनां समूहेन सहयोगो विधातव्य इत्यत्र बलं दत्तवान्। ह्य एव संयुक्त राष्ट्रसंघस्य नेपालस्य च सहकार्यस्य सप्ततितमस्य वार्षिकोत्सवस्य अवसरे आयोजिते समारोहे प्रधानमन्त्री सुशीला कार्की जलवायोः परिवर्तनस्य विश्वव्यापिन्याः चिन्तायाश्च समाहोयानां समाधानाय संयुक्त राष्ट्रसंघीयां प्रणालीं सुदृढां विधातुं बलं दत्तवती। प्रधानमन्त्री कार्की राष्ट्रसंघेन नेपाले शान्तेः विकासस्य मानवाधिकारस्य च प्रवर्धने महत्वपूर्णं योगदानं प्रदत्तमस्ति इति प्रावोचत्। प्रधानमन्त्री कार्की नेपालः संयुक्त राष्ट्रसंघस्य नैरन्तरेण सशक्तः विश्वसनीयश्च सहयात्री वर्तते इति प्रावोचत्। नेपाले वित्तीय संघीयतायाः क्रियान्वयनाय सार्वजनिक वित्त व्यवस्थापनस्य सुदृढीकरणाय च त्रयाणाम् एव स्तराणां सर्वकारेषु वित्त प्रणाल्याः सुधाराय च ऐसैक विकास कोषेण दशकोटिनाम् अमेरिका देशीय मुद्राणां सौविध्यपूर्ण ऋणं प्रदास्यते। अर्थमन्त्रालये ह्य आयोजिते कार्यक्रमे अर्थसचिवस्य डॉ घनश्याम उपाध्यायस्य ऐसैक विकास कोषस्य नेपालवर्तिनः देशीय निर्देशकस्य आर्नो कोस्वा इत्यस्य च मध्ये ऋण सम्बद्धे संविदापत्रे हस्ताक्षराणि सम्भूतानि सन्ति। ऐसैक विकास कोषेण नीतिमाधृत्य ऋणत्वेन प्रदीयमानो धनराशिः निर्धारितस्य आयव्ययिकस्य अनुसारेण नेपाल सर्वकारेण प्राप्स्यते। संविधायाः अनुसारेण ऋणस्य चतुर्विंशतिः वर्षाणाम् अवधिः भविष्यति। संविधा कार्यक्रमे अर्थसचिवः डॉ उपाध्यायः ऐसैक विकास कोषस्य देशीय निर्देशकः कोस्वा च ऋण संविदा सम्बद्धे विषये स्वकीयां धारणां व्यक्तवन्तौ। निर्वाचन आयोगेन निर्वाचनस्य प्रचाराय प्रसाराय च अधिकानां ध्वजानां प्रयोगस्य निरोधनाय नवीनायाः व्यवस्थायाः प्रस्तावः विहितोऽस्ति। प्रस्तावितायाम् आचार संहितायां दशसंख्यातानामेव दलध्वजानां निर्वाचनचिह्नानां च प्रयोगं विधातुं राजनैतिक दलस्य प्रत्याशिनः वा दलस्य नामचिह्न प्रयुक्तायाः एकस्या एव प्रचारपट्टिकायाः प्रयोगस्य व्यवस्थां विधातुं प्रस्तावितं वर्तते। राष्ट्रियसभायाः सदस्यानां निर्वाचनस्य कृते सप्तषु प्रदेशेषु मतदानस्थलानि मतदानकेन्द्राणि च निर्धारितानि सन्ति इति निर्वाचनायोगेन ज्ञापितं वर्तते। सप्तानामेव प्रदेशानां प्रदेश राजधानीवत्सु जनपदेषु मतदानस्थलानि मतदानकेन्द्राणि च निर्धारयितुं निर्णीतमस्ति इति आयोगस्य सहसचिवेन त्रास नारायण प्रसाद भट्टराई इत्यनेन प्रकाशितायां विज्ञप्तौ ज्ञापितं वर्तते। प्रधानमन्त्रिणा सुशीला कार्किणा सह नेपालस्य कृते चीन देशस्य राजदूतेन छनसोङ इत्यनेन प्रास्थापनिक मेलवार्ता विहितास्ति। सीमा प्रासादे ह्य सम्भूते मेलने अनयोर्मध्ये नेपाल चीन देशयोः सम्बन्धस्य विविधेषु पक्षेषु द्विपक्षीयस्य हितस्य विषयेषु च वार्ता सम्भूतास्तीति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री कार्की राजदूतं सोङ इत्यमुं कार्यकालं प्रपूर्य स्वदेशं प्रति प्रस्थानस्य समये वर्धापनं प्रदाय चीनस्य विपरीतं नेपाल भूमेः प्रयोगः केनापि प्रकारेण न भविष्यति इति समाश्वासयत्। तदवसरे राजदूतः सोङ चीनदेशः नेपालस्य मित्रमस्तीत्यतः नेपालस्य विकास निर्माणस्य विविधेषु पक्षेषु सहयोगो विधीयते विधास्यते चेति प्रावोचत्। नेपाल प्रहरिणः केन्द्रीयानुसन्धान निकायेन नेपाल ट्रस्ट नामाख्यायाः संस्थायाः भूमेः अपचलनस्य प्रकरणे तात्कालिक सचिवस्य अर्जुन बहादुर कार्किणः सहसचिवस्य लेख बहादुर कार्किणः थाम शेर्कु ट्रेकिङ संस्थायाः अध्यक्षस्य लाक्पा शेर्पाभिदस्य च विरूद्धे ह्य जनपद न्यायालये भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितम् वर्तते। नेपाल ट्रस्ट इति संस्थायाः दरबार मार्गवर्तिन्याः भूमेः अनियमिततायाः प्रकरणे पञ्च अब्जानि पञ्चविंशति कोटयः त्रिषष्टिः लक्ष्याणि च रूप्यकाणि हानि वित्तं निर्धार्य भ्रष्टाचारस्य न्यायिक प्रकरणं पञ्जीकारितं वर्तते। प्रकरणेऽस्मिन् त्रिभ्य एव जनेभ्य पञ्चवर्षाणां कारावासनस्य दण्डनम् अभियाचितं वर्तते। प्रधानमन्त्रिणा सुशीला कार्किणा सह गत भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः घटनायाः अनुसन्धानाय संघटितस्य आयोगस्य पदाधिकारिभिः मेलवार्ता विहितास्ति। सीमा प्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य विहिते मेलने आयोगस्य पदाधिकारिभिः आयोगस्य समयसीमानम् एकमासम् वर्धयितुम् अनुरुद्धमस्ति इति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते। लुम्बिनी बौद्ध विश्वविद्यालये वैदेशिक विद्यार्थिनाम् आकर्षणं वर्धमानमस्ति। बौद्ध दर्शनस्य तेन सम्बद्धानाम् अन्येषां विषयाणाञ्च अध्ययनाय वैदेशिक विद्यार्थिनां संख्या वर्धमाना अस्ति इति विश्वविद्यालयेन ज्ञापितम् वर्तते। विश्वविद्यालये सम्प्रति चीन भारत श्रीलंका भूटान म्यान्मार जापान मलेशिया ताइवान प्रभृतीनां देशानां विद्यार्थिनः अध्ययनरताः सन्ति इति विश्वविद्यालयेन ज्ञापितम् वर्तते। लुम्बिनी बौद्ध विश्वविद्यालयस्य बौद्ध दर्शनाध्यापन संकायाध्यक्षः डॉ माणिक रत्न शाक्यः स्नातकोत्तरस्तरे विद्यावारिधौ च वैदेशिक विद्यार्थिनां प्रवेशनक्रमः वर्धितोऽस्ति। इति समाचारः।